सर्वेभ्यो नमः, स्वागतं। गतवर्गे वयं
भगिनी, व्हाट इज द पेज नंबर फॉर
लोट
दिस?
रक् किमस्ति
हेलो, पेज नंबर इन द बुक?
एकनिमिषं वदामि महोदय। वयं लोट्लकारस्य विषये पठितवन्तः, अपि गृह पाठः अपि आसीत्। गृहपाठस्य विषये ज्ञात्वा वयं गच्छामः। अस्तु, तत्र गृहपाठः आसीत् गीतासोपान पुस्तके। तत्र अभ्यासद्वयं कृत्वा आगच्छन्तु इति। अत्र प्रथमम् अभ्यासम् एतदस्ति, कोष्टके विद्यमानेन उचितक्रियापदेन रिक्तस्थानानि पूरयत। अस्तु, अत्र किमस्ति, भवान् प्रथमम् अत्र लोट्लकारस्य विषये पठामः। अत्र भवान् परिश्रमम्, अत्र किं क्रियापदम् अस्ति?
करोतु,
करोतु। अनन्तरं भवान् अथवा भवती जागरूकः
भवतु,
भवतु। भवान् अथवा भवती प्रवचनं
शृणोतु,
शृणोतु, शृणोतु। चतुर्थः अस्ति, भवान् अथवा भवती विजयं
साधयतु,
प्राप्नोतु। अनन्तरं भवती शक्तिं
प्रदर्शयतु,
सम्पादयतु। अस्तु, अनन्तरं साधयतु। अनन्तरं भवान् अथवा भवती पराक्रमं
प्रदर्शयतु।
भवान् अथवा भवती चित्रं निर्मातु। भवती अथवा भवान् अथवा भवती नूतनं
सृजतु,
सृजतु। अस्तु,
किमर्थं नूतनं सृजतु? मीन्
इन्वेण्ट् आर् क्रियेट् समथिङ्ग्।
अस्तु, अत्र प्रश्नाः सन्ति वा?
So these are all lotlakara, right? But in a continuation of last week's
lotlakara.
Because we practiced latlakara and lotlakara last time.
Yes, so today we're going to continue with lotlakara. Asto. Anya prashna asantiva?
Parakramam, it will be sampadayatu also, no?
Some of them you can use it twice, but we'll just go with one. Astu. Okay. Ata anya prashnaah santi va? Astu. Idanim अन्य गृहपाठः आसीत्, तत्र एतत् पी डि एफ् मध्ये कानिचन अभ्यासानि कुर्वन्तु इति। अस्तु, उदाहरणानुगुणं रूपाणि लिखन्तु। अत्र वर्तमानकाले दत्तमस्ति, वयं त्वम् इति रूपे वयं वदामः। अस्तु, अत्र खादति इति अस्ति, तत्र सः खादति. त्वम् इति अस्ति चेत् खाद इति भवति. वदति इति अस्ति चेत् वद इति भवति. इदानीं हसति इति अस्ति चेत् किं भवति गोपाल् महोदय?
आग्न्यादिषु हस
हस
हस.
Why can't it be because it is lot lakara also is agnya rupam kada tu
but it is in dvivachanam from
not dvivachanam it is not in dvivachanam
oh, sorry.
It is in madhyama purusha madhyama
purusha
madhyama purusha okay. Not dvivachanam
yeah correct.
So if it is in uttama purusha if it's in pratama purusha it will become khadatu but if it's in madhyama purusha it just becomes
namahodya namahodya if it is in pratama purusha ekavachanam it will be khadatu.
And what is this for?
This is for madhyama purusha ekavachanam.
Okay, if it's madhyama purusha the tu is not there, it is just khada. Bhagini, so even this will have dvivachanam and bahuvachanam khada. There'll be some dvivachanam and bahuvachanam also.
Yes, just like just like lat lakara, lot lakara will also have 9 forms. Then Gopal madhya hasati iti karotu
hasa
hey.
Do we have to make sentence beginning?
Na hasa iti anantaram namati
namati nama kridati krida चलति चल
अस्तु अतः
भवान् इस् भवान् भवान् इस् प्रथमपुरुष न उत्तमपुरुष न भवान् वदतु ओन्ली नो इट् डोण्ट् बि भवान् वद
आम्
भवान् वदतु ओके
अस्तु अनन्तरं मोहन् महोदय भवान् वदतु
विच् वन् भगिनि जस्ट् स्टेप्ड् औट् फर् अ सेकेण्ड् हस विच् वास् द नेक्स्ट् ओके ओके प्रहरति इस् प्रहर आज्ञारूपम् इस् प्रहर त्वं प्रहर
पश्य अत्र स्थगयतु. अनन्तरं नरसिंहमूर्तिमहोदय भवान् वदतु स्थापयति
स्थापयति स्थापय Shall I go to the next one?
Aam, vadatu.
Uttishtati. Uttishta. Upavishati. Upavisha. Smarati. Smar. Preshayati. Preshaya. Nirtyati. Nirtya.
अत्र स्थगयतु. अस्तु इदानीं प्रिया भगिनी भवती वदतु खायति
गायति गाय त्यजति त्यज चिन्तयति चिन्तय तरति तर हसति हत प्रविशति प्रविश पठति पठ गच्छति गच्छ
आम् अस्तु समीचीनम् अस्तु अनन्तरं अत्रापि मध्यमपुरुष एकवचनं एव अत्र अभ्यासः कुर्मः तस्य अनन्तरं वयं नवरूपाणि द्रक्ष्यामः अस्तु अत्र सः खादति राधा भगिनी भवती पठति वा
आं भगिनि सः खादति त्वं खाद बालकः वदति त्वं वद एषा धावति त्वं धाव भवान् गायति त्वं गाय एषः पश्यति त्वं पश्य गीता आगच्छति त्वम् आगच्छ प्रकाशः हसति त्वं हस
अत्र स्थगयतु अस्तु इदानीं सुरेन्द्रमहोदय भवान् पठति वा
शिक्षकः पाठयति त्वं पाठय सा रटति त्वं रट बालकः क्रीडति त्वं क्रीड जननी नमति त्वं नम रक्षकः रक्षति त्वं रक्ष भक्तः ध्यायति त्वं ध्याय छात्रः लिखति त्वं लिख पिता अङ्गति त्वम् अङ्ग सः त्यजति
न अत्र स्थगयतु महोदय अत्र स्थगयतु अस्तु इदानीं गोपाल् महोदय भवान् पठतु सेवकः आनयति
सेवकः आनयति विच् वन् भगिनी नम्बर्
16 महोदय सेवकः आनयति
सेवकः आनयति त्वम् आनय धनिकः यच्छति त्वं यच्छ भगिनी पिबति त्वं पिब सः त्यजति त्वं त्यज पितामहः चिन्तयति त्वं चिन्तय ओके भगिनी
समीचीनम् इदानीं मोहन् महोदय भवान् वदतु
पितामहः चिन्तयति त्वं चिन्तय शिष्यः कथयति त्वं कथय लता नयति त्वं नयत रमेशः आनयति त्वम् आनय राधिका नृत्यति त्वं नृत्य सः तरति त्वं तर लेखः रचयति त्वं रचय भगिनी ऐ काण्ट् सी द लास्ट् 27
भगिनी एकनिमिषं लता नयति इस् लता त्वं नय रैट् नयत्
नय नय
I said Nayata, sorry.
Yeah.
Tara, Tvam Tara, Lekaha Rachayati, Tvam Rachaya, Chatraha Pathati, Tvam Patha, Devaha Rakshati, Tvam Raksha, Saha Tadayati, Tvam Tadaya, Udayanaha Prakshalayati, त्वं प्रक्षालय
अस्तु अत्र प्रश्नाः सन्ति वा अस्तु अत्र नवरूपाणि अत्र दर्शयन्ति अत्र वर्तमानकाले पठति पठतः पठन्ति पठसि पठतः पठत पठामि पठावः पठामः इति भवति किन्तु लोट्लकारे पठतु पठतां पठन्तु पठ पठतं पठत पठानि पठाव पठाम इति भवति अस्तु अत्र तस्य अभ्यासं कुर्मः अत्र पठति इत्यस्य एतानि रूपाणि सन्ति इदानीं वदति इत्यस्य नवरूपाणि वक्तुं शक्यते वा नरसिंहमूर्तिमहोदय भवान् वदति वा
भगिनि लोट् लकाराः
Parasmaipadi. After this, we will look at Atmanepadi.
So, Vadatu, 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 Vadatam, Vadantu. Vadasi, Vadataha, Vadat. Vadami, वदावः वदामः सो वदानि
वदानि
वदावः वदामः
न न वदानि वदाव वदाम
वदाव वदाव वदाम
अत्र विसर्गः नास्ति अस्तु
ओके वदाम
वर्तमानकाले वदा तत्र विसर्गः भवति अत्र वदाव वदाम इति अस्तु अनन्तरं प्रिया भगिनी भवती लिखतु इत्यस्य
लिखतु लिखतां लिखन्तु लिख लिखतं लिखत लिखानि लिखाव लिखाम
Bhagini, one question. Would you be able to share this, Bhagini, after this, if you can give a link. This has all the forms, so it will be easy in one page to read it.
Can you repeat what you said, Mahodaya?
See, now you have patatu, patatu, so you have all the three forms, right? Pratama Purushaha, Madhyama and Uttama Purushaha. All this Ajna Rupam in one table. So it becomes very easy.
Ashto, Ekanimsha. Aham Likami Ekanimsha. Thank you. अस्तु एतद् दृष्ट्वा कुर्वन्तु. अस्तु इदानीं किं क्रियापदं पश्यति इति स्वीकुर्मः. अस्तु अत्र दृश्यते किल. अस्तु इदानीं राधा भगिनी भवती पश्यतु इति करोतु.
आं भगिनि, पश्यतु, पश्यतां, पश्यन्तु, पश्य, पश्यतं, पश्यत, पश्यानि, पश्याव, पश्याम.
समीचीनम्. अस्तु इदानीं क्रियापदमस्ति गच्छति. सुरेन्द्रमहोदय भवान् करोतु.
गच्छतु, गच्छतां, गच्छन्तु, गच्छ, गच्छतं, गच्छत, गच्छानि, गच्छाव, गच्छाम. करेक्ट्?
आम्. अस्तु अनन्तरं हसति. गोपाल् महोदय भवान् करोतु.
हसतु, हसतां, हसन्तु, हस, हसतं, हसत, हसानि, हसाव, हसाम. Anything else, Bhagini?
Samita. समीचीनम्. अस्तु अत्र प्रश्नाः सन्ति वा
भगिनि? रिव्यूड् दिस् बट् जस्ट् अगेन् जस्ट् रिफ्रेश् सो उत्तमपुरुषः आज्ञारूपं विच् इस् लोट्लकारः अहं पठामि. And aham patami, what is the difference, Bhagini?
Patami is in Vartamanakara, it is in Latlakaraha. Patami is in Lotlakaraha.
Yeah, Bhagini, but if, what is the difference? I read, both are I read.
It's like an, I guess, an order to yourself. Like, I need to read.
Or I must read, like that?
I must read. I need to read. Iti bhavati.
I should read.
I should read. अस्तु अत्र प्रश्नाः न सन्ति चेत् अस्तु अत्र अधोलिखितवाक्यानि उचितक्रियापदैः पूरयन्तु. अस्तु अत्र उदाहरणमस्ति सः गच्छति. अत्र अस्ति, अत्र वर्तमानकाले अस्ति, वयं लोट्लकारे वदामः एषः गच्छतु इति. अस्तु इदानीं सीता पठति. किं भवति मोहन् महोदय?
सीता पठति, लता पठतु, बालकः क्रीडति, बालका क्रीडतु, बालिका गायति महिला गायतु सा पश्यति एषा पश्यतु
समीचीनम् अत्र स्थगयतु अस्तु अत्र एकवचनमस्ति इदानीं द्विवचनं अत्र तौ गच्छतः इति अस्ति चेत् एतौ गच्छताम् इति वदामः अस्तु इदानीं नरसिंहमूर्तिमहोदय भवान् वदति वा
नटौ नृत्यतः नर्तकौ नृत्यतां बालकौ तरतः युवकौ तरतां वैद्यै यच्छतः आचार्यकौ यच्छतां शुकौ वदतः बालकौ वदतां सेवकौ तिष्ठतः कर्मकारौ तिष्ठतां वृद्धौ उपविशतः बालिके उपविशतां भक्तौ जायतः छात्रौ जायताम्
समीचीनम् अस्तु अस्तु इदानीं प्रिया भगिनी भवती वदतु
फ्रम् द 14th भगिनि युवकौ सशतः युवत्यौ हसतान् सङ्गीतज्ञौ गायतः गायकौ गायताम्
एतत् द्विवचने अस्ति इदानीं वयं बहुवचनं पश्यामः भवती एव करोतु भगिनि
ते समरन्ति एते सारि स्मरन्ति ते स्मरन्ति एते स्मरन्तु जनाः पश्यन्ति सज्जनाः पश्यन्तु पुत्राः कुर्वन्ति पुत्रयः कुर्वन्तु महिलाः आगच्छन्ति पुरुषाः आगच्छन्तु जनाः अर्चन्ति भक्ताः अर्चन्तु व्याघ्राः धावन्ति हरिणाः धावन्तु शिष्याः
इदानीं राधा भगिनी भवती करोतु
शिष्याः नमन्ति बालिकाः नमन्तु मीनाः तरन्ति मकराः तरन्तु देशभक्ताः जानन्ति प्रजाः जानन्तु जनकाः रक्षन्ति आरक्षकाः रक्षन्तु
समीचीनं भगिनि अस्तु अत्र प्रश्नाः सन्ति वा अस्तु एतत् प्रथमपुरुषे आसीत् इदानीं मध्यमपुरुषे पश्यामः अस्तु अस्तु अत्र त्वं सम्पादयसि त्वं सम्पादय सुरेन्द्रमहोदय भवान् पठति वा
त्यजसि त्वं त्यजय त्वं प्रेषयसि त्वं प्रेषय त्वं धरसि त्वं धरय त्वं चलसि
त्वं धर और धरय दलि
धरय
ओ धरय ओके
त्वं चलय
वयसतारय सॉरी
आई थॉट इट वाज त्वं धरा ओनली तर्हि सम्पादयसि सम्पादय
सम्पादयसि सम्पादय त्वं धरसि त्वं धर
धर
त्वं चलसि त्वं चल त्वं पश्यसि त्वं पश्य त्वं नयसि त्वं नय त्वम् उपविशसि त्वम् उपविश त्वं पाठयसि त्वं पाठय पाठय त्वं स्मरसि त्वं स्मर ओके और शुड आई गो अहेड
अत्र स्थगयतु अस्तु इदानीं गोपाल महोदय भवान् पठतु
युवां वदथः युवां वदतं युवां क्रीडथः युवां क्रीडतं युवां नमथः युवां नमतं युवां गणयथः युवां गणयतं युवां चालयथः युवां चालयतम्
समीचीनम् अस्तु इदानीं मोहन् महोदय भवान् पठतु
युवां वदत युवां वादयतः युवां वादय युवां चर्यतः युवां चर्य युवां लिखतः
महोदय
ओ ये दिस् मध्यम पुरुष वादयतः वादयतं युवां चर्यतः युवां
चर्चयतः
चर्चयतः युवां चर्चयतं युवां लिखतः युवां लिखतं युवां सञ्चरतः युवां सञ्चरतम् युवाम् आनयतः युवाम् आनयतम्
अस्तु समीचीनम् एतदस्ति द्विवचनम् इदानीं बहुवचनं गच्छामः नरसिंहमूर्तिमहोदय
यूयं जायत यूयं जायत यूयं नमत नमथ यूयं नमतः नमथ यूयं पिबथ यूयं पिबत् यूयं त्यजथ यूयं त्यजत् यूयं मिलथ यूयं मिलत् यूयं जल्पथ यूयं जल्पत् यूयं गुणयथ यूयं गुणयत् यूयं गुण सो ऐ थिङ्क् 27 देर् इस् अ मिस्टेक् न गुणयत् था यूयं गुणयत्
अत्र
यूयम् असथ यूयं हसत् यूयं स्मरथ यूयं स्मरत् यूयं निन्दथ यूयं निन्दत्
समीचीनम् अत्र यूयं गुणयत अत्र गुणयथ इति अत्र नास्ति तत्र गुणयथ इति एव भवति
गुणयथ
अस्तु अत्र प्रश्नाः सन्ति वा अस्तु इदानीम् उत्तमपुरुषः अस्तु प्रिया भगिनी भवती वदतु
अहं गच्छामि अहं गच्छामि अहं गच्छामि अहं परिशीलयामि अहं परिशीलयामि अहं हरामि अहं हरामि अहं त्यजामि अहं त्यजामि अहं वदामि अहं वदामि अहं प्रदर्शयामि अहं प्रदर्शयामि अहं तोषयामि अहं तोषयामि अहं कर्तयामि अहं कर्तयामि अहं उद्धरामि अहम् उद्धरामि अहं निर्वापयामि अहं निर्वापयामि
समीचीनम् अस्तु इदानीम् एतत्
भगिनी हियर् यु हाव् बोत् लट् एण्ड् लोट् लकार सैड् बै सैड् रैट्
आम्
अहं गच्छामि इस् वाट् इस् लोट् रूपम्
आम्
ऐ शुड् गो
आम्
आर् ऐ हाव् टु गो
आम् ऐ शुड् गो
ऐ शुड् गो अहं परिशीलयामि अहं परिशीलयामि इन् ऐ शुड् एक्सामिन् आज्ञाकार for self does not struggling to get how it would form sentences
tatra
whenever you want to tell yourself you have to do it you're giving yourself an order kind of thing
yeah
now there's a difference see I study for the exam and I have to study for the exam there's a difference in the attitude right in the first one you are doing
it more I have to study is more of a need than an agnya you will not request or command yourself so the language is presenting interest
no, you lazy to study otherwise I'm going to fail it's like that It's a little difficult for us to understand because you don't take it in that context, but it is, we are ordering us.
Yeah, correct.
We like ordering others more, I guess.
Asto. Asto. Etad asti ek vachan.
So, lat and lot lakaraha, there is prathama, madhyama and uttama purushaha. So that will be 9 and 9 so for each word there will be 18 types
yes
yes yes mahodaya that is only na mahodaya that is only for 2 lakaras we haven't talked about the rest of the lakaras
oh true because this is just what
each lakara no ek nimsha so each kriya padam like one kriya padam not a dhatu each kriya padam for each kriya padam and each lakara there for each lakara there's what 9 forms so for each lakara you have to multiply by 9 and if it's a it's a parasmaipadi or atmanepadi dhatu okay but if it's an ubhayapadi dhatu then that number doubles because then you'll have like different forms for like if you have karoti you have karoti and kurute so karoti you will have 9 forms for each lakaram and you'll have 9 forms for each lakaram for kurute too so the number will double and the forms will be different
yeah and this is only in vartman present tense so if you go to bhutkal and bhavishyaka that becomes even more so 9 more
yeah
okay buddy so this is good buddy this way you have all these side by side so this book is good
अस्तु इदानीं द्विवचनं गोपाल् महोदय भवान् करोतु.
द्विवचनम् आवां चलावः आवां चलाव.
ओ एकनिमिषः किम् आगतम् एकनिमिषः. क्षम्यताम् अस्तु वदतु महोदय क्षम्यताम्.
आवां ज्वालयावः आवां ज्वालयाव आवाम् आरोपयावः आवाम् आरोपयाव आवां नृत्यावः आवां नृत्याव आवां प्रेषयावः आवां प्रेषयाव.
अस्तु एतदपि करोतु महोदय.
आवां निवीरयावः आवां आवां निवारयावः आवां निवारयाव आवां चिन्तयावः आवां चिन्तयाव आवां त्यजावः आवां त्यजाव आवाम् उपविशावः आवाम् उपविशाव आवाम् गायावः आवाम् गायाव. कण्टिन्यू भगिनि.
अत्र स्थगयतु. अस्तु इदानीं मोहन् महोदय भवान् पठतु.
अहं इस् इट् तोषयामि अहं प्रदर्शयामि.
अत्र बहुवचनं कुर्मः अत्र वयं तरामः
वयं तरामः वयं तराम वयं स्मरामः वयं स्मराम वयं प्रेषयानः वयं प्रेषयानः प्रेषयाम वयं लिखामः वयं लिखाम वयं धारामः वयं धाराम वयं क्रीडामः वयं क्रीडाम वयं पश्यामः वयं पश्याम वयं नयामः वयं नयाम वयम् आगच्छामः वयम् आगच्छाम वयं
प्रविशामः
वयं प्रविशाम.
अस्तु एतत् उत्तमपुरुषः अस्ति. इदानीं वयं प्रथमपुरुषः
उत्तमपुरुषः बहुवचनम्.
इदानीं वयं प्रथमपुरुषः पठितवन्तः मध्यमपुरुषः पठितवन्तः उत्तमपुरुषः पठितवन्तः. इदानीं तत्र उत्तमपुरुषस्य अपि मध्यमपुरुषस्य अपि प्रथमपुरुषस्य अभ्यासः अस्ति अत्र. सो दिस् विल् बि लैक् अ मिक्स्ड् वर्जन्. अस्तु इट् विल् जस्ट् नाट् जस्ट् बि प्रथमपुरुष ओर् मध्यमपुरुष ओर् उत्तमपुरुष इट् विल् हाव् मिक्स्ड् आफ् आल् आफ् दम्. अस्तु पश्यामः. अस्तु अत्र धातुः अत्र दत्तः अस्ति. अस्तु एतत् दृष्ट्वा वयं क्रियापदं वदामः. अस्तु प्रथमः अस्ति सः. अत्र पट् इति धातुः दत्तमस्ति. पट् धातुः पठति इति भवति. तदर्थं पठतु. अस्तु इदानीं नरसिंहमूर्ति महोदय भवान् वदतु.
लिखतु
तौ चर्चौ चर्चतु मिल् मिलतु वद्
तौ चर्चतां नु
सो सी दट् इस् वेर् यु पठतु
पठतु सः पठतु तौ चर्चतां
चर्चतां बिकास् इट् इस् द्विवचनं
या शी इस् राइट् या तौ चर्चतां
सा लिखतु लिखतु
सा लिखतु तौ चर्चतां त्वं मिलतम् आवां वद् न आवां वदामि
त्वं मिल त्वम् इस् मिल मध्यमपुरुष फस्ट् दिस् थिङ्ग्
त्वं मिल त्वं मिल करेक्ट् सो देन् आवां मिलाव सारी आवां वदाव यूयं वदत् ते सूच ते सूचन् सूचन्तु करेक्ट् भगिनि सूचन्तु सूचन्तु देन् युवां
एकनिमिष अत्र सूचयति इति भवति
सूचयति बट् ते इस् ए बहुवचनं न सो
सूचयन्तु
सूचयन्तु दत्वात् सूचयन्तु देन् युवां दट् इस् वट् इस् दट् सिन् सिञ्च युवां सिञ्चतं सिञ्चतं गायकौ गायकौ इस् गाय गायतं
गायतां
गायतां देन् बालिके बालिके
भगिनी वन् क्वश्चन् भगिनि सो आल् दिस् इस् प्रथमपुरुषः रैट् आर् इट् इस् काम्बिनेशन् प्रथम
to the common
all three are there
all three
so these are the nine forms okay
balike is bahut gana
ganayantu
gana ganayantu ganayantu correct yeah.
ganayantu balika
balike
dvivachanam na
द्विवचनं बालिका बालिके बालिका
बालिका बालिके रैट्
रैट्
गणयन्तां सो छात्राः प्लूरल् बहुवचनं स्मरन्तु
स्मरन्तु अस्तु अतः स्थगयतु इदानीं प्रिया भगिनी
वैद्यः किं गायकाः गायन्तु देवः पालयतु वयं सर् भगिनि देवः पालयतु
रैट्
एकवचनं
देवः पालयतु
पालयतु वयं त्यजाम भवान् नमतु भवती ज्ञातु Jatu, Nyatu.
Nyatu, Jatu.
Vahanani. Vahanani, Bhagavachanam. Vahanani, Gacchantu. Mata, Pachatu.
Pachatu.
Esha, Hasatu. एताः बहुवचनं क्रीडन्तु भवत्यः नृत्यन्तु अर्चकः अर्चतु अहं तण्डयानि यूवां पिबतं ते बालिके ते बालिके क्रीडतां ते बालिके क्रीडतां इस दट राइट भगिनी
क्रीडन्तु
बालिके द्विवचनं वै डस् इट् से ते बालिके सातेतः ते बालिके क्रीडन्तु सारी क्रीडतां
अस्तु समीचीनं
भगिनी फार् दिस् वी नीड् दट् that table, Bhagini, when you go to page, what is that? 202, page 202 has that. So we're seeing how that only, without that, it is very difficult.
Yes, practice will make you memorize it, just like we did for Lat Lakare, if we also do this for Lot Lakare, we'll memorize it, Mahogany.
Because essentially we are doing lot, lut and lot, so you have 18 right there. So this is eight combination of the 18 words, 18 verbs.
No, 18 forms.
Yeah, 18 forms of a word. Yeah.
Yeah. So this is multiple choice. So we have to figure out te chatre iti asti. Tatra we have to see which kriyapadam is the right one in the given. Astu tatra gacchatu asti gacchani iti asti gacchatam iti asti gacchava iti asti
gacchatam
astu atra gacchatu iti asti chet kartra padam kim bhavitum arhati
sa
gacchatam
na sa atra I'm not asking for the answer of the question. I'm asking if the verb is gacchatu, what can the subject be? What can the kartrupadam be?
Chatraha.
Chatraha. Chatraha.
Chatra.
But we know that this is ekavachana, so it will not be that. Gacchani. What is the kartrupadam?
Aham.
Aham. So this is not aham. So, okay, next. Gacchava.
Gacchava is avam. It is not.
So, what about gacchatam?
Divachinam.
And Pratama Purusha. It is Divachinam and Pratama Purusha. So, that is, it will be te chatre kim gacchatam.
Gacchatam.
Samichinam. Astu.
And if it is gacchava, it has to be a bahuvachanam, right, Bhagini?
Na gacchava iti dvivachanam.
Dvivachanam.
Oh, yes, sorry. It's dvivachanam.
Dvivachanam, but uttama purusha.
Yes, uttama purusha.
Astu. Astu. Idani. Dvitiyam. अस्तु भवति किं भवति अस्तु द्वितीयः अस्ति भवति ब्लाक् अत्र
पठतु
भवती पठतु anantaram yum
yum patata yum agachata
gopal mahodaya bhavan vadatu kim vayam
vayam
likam
likam likam likam likam likam kim
vayam
likam
likam
अस्तु समीचीनम् एषा किं
शृणोतु शृणोतु
शृणोतु त्वं किं भवति
फिफ्त् वन् द लास्ट् डज़न् गो विद् एनिथिङ्ग् रैट् भगिनि शृणु शृणोतु एण्ड् शृण शृणवाणी फर् अहम् अशृणु
सा एण्ड् एषा आर् न्यूर् एण्ड् फार् रैट् सो इट् शुड् बि शृणोतु ओन्लि
आम् एषा शृणोतु समीचीनम् इदानीं त्वम् इति अस्ति त्वं
जानातु
जानातु इति प्रथमपुरुषः अत्र जानातु इति विशेषणक्रियापदमस्ति सो द फार्म्स् फार् जानातु विल् बि डिफ़रेण्ट् किं भवति चेत्
जानहि नाट् सूटबल्
So, when we learnt Lot Lakaraha, when we learnt about Visheshana Kriya Padani in Gita Sopanam, we learnt about Vishesha Kriya Padani. Those verbs will have different forms in each Lakaraha. It will not be Samanya Kriya Padani. Ekanimshaha. So, forms, the form for Janati, so it will be
Janahi,
Nata Janatu, Janitam, Janantu, Janihi, Janitam, Janita, Janani, Janava, Janama. So, will not learn about visheshana kriya padani right now but just for right now to answer the exercise we'll take this example atra bhavantah
janihi
जानन्तु अस्तु
जानन्तु
त्वम् इत्यस्य किं भवति
त्वम् इस् जानीहि
भवन्तः इस् जानन्तु अस्तु
जानन्तु
अनन्तरं किं वयं
किं वयं बालकाः तत्र उपविशन्तु
उपविशन्तु
किम् आवां
अक्षरः पठतम् आवां जस्ट् व तिष्ठाव
तिष्ठाव
मध्यमपुरुषः ऐ मीन् द्विवचनम् उत्तमपुरुषः
भवन्तः सकार्यं कुर्वन्तु भवन्तः सकार्यं कुर्वन्तु
बिकास् इट् इस् बहुवचनं प्रथमपुरुषः
एते अपि शीघ्रं
वयं सकार्यं वयं सकार्यं करवाम एते अपि शीघ्रं सकार्यं
कुर्वन्तु न
एते अपि शीघ्रं स्वकार्यं करोतु
कुर्वन्तु
बहुवचनं
फलं
स्वीकरोतु एतत् एतत् ओके
जानातु एकवचनं प्रथम
एतत् ओके
So essentially we should know what is it first person uttam purushah prathama purushah or madhyama purushah and we should know all the is it singular dual or plural ekavachanam dvivachanam so it's a combination Bhagini, so essentially here we have to identify the different purushas meaning first madhyam purusha uttam purusha and we should know the singular dual or plural right Bhagini that is the exercise right
na atra basically we should be able to figure out the vachanam and the purushah of the kriya padam as well as the sentence using the kartya padam so that we can match them both asto
yes sir I think I got disconnected when Radha Bhagini was explaining something about number 5 when I was asking about this, you know, I think she was saying something and I got disconnected from here.
For the fifth one, Bhagini?
Yes, Bhagini.
So, for Esha, it will be Shrinotu because Esha is Pratama Purusha Yeka Vachanam.
Right.
So, Pratama Purusha Yeka Vachanam, there is only one. Because yes, which is Shrinotu. So it will be Esha Shrinotu.
Right, Bhagini. So the last one, is it a valid form, Bhagini, the Shrinu for anything? Or is it just...
Shrinu is... Sorry.
Is that a special form, Bhagini?
It is a form, one second.
Were you asking about number 15?
No, not
Tom Shun, not that two. Okay.
Second, Shaha.
Tom Likha.
So for shunu, it will be madhyama purusha ekavachanam. So shunotu, shunutam, shunvantu, shunu, shunutam, shunuta, shunavani, shunavava, shunavama, shunavama. So for madhyama purusha tvam, it will be tvam shunu.
Oh, okay.
So it's different from the others then.
So this is like one of the visheshana kriya padani, like janatu, karotu, shrinotu. So we haven't gone over that, but since they appeared in the exercise, we'll just go over that. But we'll go over the forms of the visheshana kriya pada in detail next week. Astu.
Thank you, Bhagini.
Atta prashnaah santi va. Astu. अत्र प्रश्नाः न सन्ति चेत् क्षम्यताम् अस्तु अद्य अत्र वयं परस्मैपदीधातूनां लोट् लकारः वयम् अभ्यासं कृतवन्तः. Do we want to start Atmanepadi Dhatu forms, or shall we do that next week?
Next week, Bhagini.
Asto.
It will get confusing. That's like last time, that's what happened.
Asto. Take a minute. Let me find some more exercises. Asto. Atra. अस्तु एतत् पश्यामः अत्र हरति इति अस्ति. लेट्स् सो एव्रिवन् विल् टेक् त्री वर्ब्स्. यू केन् चूस् बट् डोण्ट् रिपीट् अ वर्ब् दट् समन् आल्रेडी हेस् सेड्. सो टेक् त्री वर्ब्स् एण्ड् यू हेव् टु से आल् द नैन् फार्म्स् फार् लोट् लकार फार् देट् वर्ब्. Asso.
Do I start?
And you can I can show this again if you want to look for kriyapadams from this. Asso.
Okay.
So Likha. First person, let's go in a different order. Narasimha Murthy Mahodaya, Bhavan Karoto. Kriyapadatrayam take three kriyapadams and say the nine forms for each of them in Lotla Kara.
So
you can take any. You don't have to take them from here, but
I will take hasami.
Asto. Hasati. Asto. Vadatu.
Asatu. Asatam. Asantu. Has. Asatam. Asat. Asani. Asava. Asama.
Samichinam. Asto.
Tvam hasa bhagini, right? Or has?
Hasa, hasa.
Hasa, hasa. Next is...
So this is, we are doing Atmanepadi, right, Bhagini? Only Atmanepadi. Next time, Parasmaipadi.
No, okay. This is Parasmaipadi.
This is Parasmaipadi, Mahodaya.
Yes,
next week, so, we'll do... First, next week, we'll go through to see that if everyone is grasping Parasmaipadi well, and then we'll move to Atmanepadi. Because okay. We should learn the forms first, or else if we keep going and we don't know the forms, it will be useless. Asso.
Okay. Vadami. Vadami. Vadatu. Vadatam. Vadantu. Vada. Vadatam. Vadat. Vadani. Vadava. Vadama. What is the next one? Can we go to the other word? Can the other place?
Yeah,
so I will say tosha, tosha yami, tosha yami, tosha, you know, what is that word? Tosha yami. Tosha, tosha yami, tosha ya, tosha yami. So that word should be tosha yatu, tosha yatam, tosha yantu. Toshaya, Toshayatam, Toshayat, Toshayani, Toshayava, Toshayama.
Asso. Anantarna? Sorry, Tri Kriyapadana.
Okay, I don't agree.
Asu idani Radha Bhagini Bhavati Karoto.
Tyajantu. Tyaja, Tyajatam, Tyajata, Tyajani, Tyajava, Tyajama. Then Nam Datu, Namatu, Namatam, Namantu, Nama, Namatam, Namata, Namani, Namava, Namama. Brahma Datu, Brahmatu, Brahmatam, Brahmantu, Brahma, Brahmatam, Brahmatha, Brahmani, Brahmava, Brahmama.
Then Bhagini. Samichina. Karoto Mahodaya.
I'll take Vada. I'll take Vada. Vada, then, which is Ajna Rupam, Lotlakaraha, Vadatu, Vadatam, Vadantu. Vada, Vadatam, Vadata, Vadani, Vadava, Vadama. Then Pradarshaya, Toshaya, Toshaya, Toshayatam, Toshayatha, Toshayani, Toshayava, Toshayama. Chal, Chalatu, Chalatam, Chalantu, Chala, Chalatam, Chalata, Chalani, Chalava, Chalama.
Samichina. Asto, Gopal Mahodaya.
He's on mute.
Gopal Mahodaya, Bhavan Vadativa. Asto, Priya Bhagini Bhavati Vadatu.
Pashyamaha. Pashyatu, Pashyatam. पश्यन्तु पश्य पश्यतं पश्यत पश्यानि पश्याव पश्याम गायतु गायतां गायन्तु गाय गाय गायतं गायत गायानि गायाव गायाम स्मरतु स्मरतां स्मरन्तु स्मर स्मरतं स्मरत स्मराणि स्मराव स्मरामि सारी स्मराणि स्मराव स्मराम डन् भगिनि
समीचीनम् अस्तु अत्र प्रश्नाः सन्ति वा अस्तु इदानीं एकनिमिषः अहं स्क्रीन् शेर् स्थगयामि अस्तु एतत् कुर्मः वा इति पश्यामि अस्तु वि केन् स्टार्ट् दिस् टुडे बट् विल् सी विल् कण्टिन्यू दिस् टुमारो अस्तु सारि नेक्स्ट् क्लास् अस्तु अत्र अस्तु गोपाल् महोदय भवान् आह्वयत् आक्चुलि न अस्तु एकनिमिषः प्रक्षालयति इत्यस्य लोट्लकारे वदतु दिस् इस् लट्लकारः बट् विल् यूस् इट् अस् लोट्लकारः अस्तु गोपाल् महोदय भवान् करोति वा
I am busy, Bhagini. I'll be on listening mode.
Astu, astu. Astu. Radha Bhagini, bauti karutiva?
Bhagini. Prakshalayati. Prakshalayatu. Prakshalayatam. Prakshalayantu. Prakshalaya. Prakshalayatam. Prakshalayata. Prakshalayani. Prakshalayava. प्रक्षालयाम
समीचीनं भगिनि अस्तु इदानीं प्रिया भगिनी भवती करोतु पृच्छति
पृच्छति पृच्छतु पृच्छतां पृच्छन्तु पृच्छतं पृच्छत पृच्छानि पृच्छाव पृच्छाम
समीचीनम् अस्तु नरसिंहमूर्तिमहोदय पश्यति
पश्यतु पश्यतां पश्यन्तु पश्य पश्यतं पश्यत् पश्यानि पश्याव पश्याम
समीचीनम् नृत्यति मोहन् महोदय
नृत्यति नृत्यतु नृत्यतां नृत्यन्तु नृत्य नृत्यतं नृत्यत नृत्यानि नृत्याव नृत्याम
अस्तु अनन्तरं राधा भगिनी
त्यजति त्यजतु त्यजतां त्यजन्तु त्यज त्यजतं त्यजत त्यजानि त्यजाव त्यजाम
नरसिंहमूर्ति
भगिनि
क्षम्यतां प्रिया भगिनी भवती वदतु
गर्जति गर्जतु गर्जतां गर्जन्तु गर्ज गर्जतं गर्जत गर्जानि गर्जाव गर्जाम
समीचीनम् नरसिंहमूर्ति महोदय
क्रीडति क्रीडतु क्रीडतां क्रीडन्तु क्रीडतं क्रीडत् क्रीडानि क्रीडाव क्रीडाम
अस्तु इदानीं मोहन् महोदय
भवति भवतु भवतां भवन्तु भव भवतं भवत भवानि भवाम भवाव भवाम नेक्स्ट् वर्ड् भगिनि
अस्तु राधा भगिनि आनयति
आनयति आनयतु आनयताम् आनयन्तु आनय आनयतम् आनयत आनयानि आनयाव आनयाम
डन् भगिनि अस्तु अत्र स्थगयामः अस्तु अहं ध्वनिमुद्रणं प्रेषयामि अपि गृहपाठं प्रेषयामि अस्तु प्रश्नाः सन्ति वा
नास्ति भगिनि
अस्तु धन्यवादः नमस्कारः
धन्यवादः
पुनर्मिलामः